गीता साधक संजीवनी छठा अध्याय श्लोक 31 से 40 तक।
वसुदेव सुतं देवं कंसचारुरमार्दनं देवकी परमानंदं कृष्णं वंदे जगद्गुरुं
सर्वभूतस्तमात्मानं सर्वभूतानि चात्मनि ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनं यो मां पश्यति सर्वत्र सर्वं समयि पश्यति तस्याहं न प्रणश्यामि स च मे न प्रणश्यति सर्वभूतस्थितं यो मां भजत्येकत्वमास्थित सर्वथा वर्तमानोऽपि स योगी मयि वर्तते आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन सुखं वा यदि वा दुःखं स योगी परमो मतः। अर्जुन उवाच योऽयं योगस्त्वया प्रोक्त साम्येन मधुसूदन एतस्याहं पश्यामि चञ्चलत्वस्थितिं स्थिरां चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्। श्रीभुवनुवच असंशयं महाबाहो मनो दुर्निग्रहं चलम् अभ्यासेन तु कौन्तेय वैराग्येन च गृह्यते असंयतात्मना यो पुष्प्राप इति मे मते वश्यात्मना तु यतता शक्यो वाप्तुमुपायत। अर्जुन उवाच अयति श्रद्धयोपेतु योगाचलितमानस अप्राप्य योगसंसिद्धिं काङ्गतिं कृष्ण गच्छति कश्चिन्नो भयविभ्रष्ट सन्नाभ्रमेव नश्यति अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणपति एतन्मे संशयं कृष्ण चेत्तुमहस्य शेषत त्वदन्यः संशयस्यास्य चित्तनह्युपपद्यते। श्रीभगवानुवाच पार्थ नैवेह नामोत्र विनाशस्तस्य विद्यते न हि कल्याणकृत्कस्ते दुर्गतिं तात गच्छति पार्थ नैवेह नामोत्र विनाशस्तस्य विद्यते न हि कल्याणकृत्कस्ते दुर्गचिन्तात् गच्छति
वसुदेवसुतं देवं कञ्चचारू